प्रत्यक्षानुभव ग्राह्यम् राजविद्या राजगुह्यम् प्रत्यक्षानुभव ग्राह्यम् उत्तमं शाश्वतं गोप्यम् ब्रह्मज्ञानं भवमोचनम् व्याप्तम् सकल जीवुलु नालो उन्ना नेनु वानिलो लेनु सुमा प्रलय वेळलो प्राणिकोटि ना प्रकृतिलो नी प्रवेशिंचुनु सृष्टि
బహువిధముల కొందరు కొలుతురు ఏకాగ్రతతో కొలిచే భక్తుల యోగక్షేమము చూచెదను